इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी आदौ मुख्यवार्ताः लोकसभा निर्वाचनस्य द्वितीय चरणार्थं प्रचाराभियानं जवीयगत्या प्रवर्तते यस्मिन् 88 संसदीय क्षेत्रेभ्यः अस्य मासस्य 26 दिनांके मतदानानि भविष्यन्ति। लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन पत्राणाम् अनुसन्धेय कार्यम् अद्य सम्पन्नम्। भारतस्य मुख्य न्यायाधीशः डीवाई चन्द्रचूडः प्रोक्तवान् यत् साम्प्रतिके काले अधिनियमान्तर्गतानां नवीनापराधिक विधीनां क्रियान्वयनं स्पष्टरूपेण प्रदर्शयति यत् देशः परिवर्तनशीलः समुदीयमानश्च भवति। भारतर्तु विज्ञान विभागेन सोमवासरं यावत् ओडिशा गांगीय पश्चिम बंगालयोः उष्णलहरी प्रकल्पिता, तत्रैव उत्तर भारतस्य केभ्यश्चित् भाग्येभ्यः वृष्टिः हिमपातश्च अनुमानितः। अपि च क्रीडा वार्तासु किर्गिस्ताने एशियाई ओलम्पिक क्वालिफायर प्रतिस्पर्धायां भारतीय मल्लयुद्ध क्रीडिकाः विनेश फोगाटः, अंशु मलिकः, मानसी ऋतिका इत्येताः उपान्त्यचक्रे सम्प्रविष्टवत्यः। आईपीएल क्रिकेट क्रीडा मालिकायाम् अद्यतने द्वन्द्वे सायं दिल्ली कैपिटल्स दलं सनराइजर्स हैदराबाद दलेन सह स्पर्धिष्यति। अथ वार्ताः विस्तरेण सामान्य निर्वाचनानां प्रथमचरणस्य समाप्तेः अनन्तरं लोकसभा निर्वाचनस्य द्वितीय चरणार्थं प्रचाराभियानं जवीयगत्या प्रवर्तते। द्वितीय चरणे अस्य मासस्य 26 दिनांके 12 राज्यानां केन्द्रशासित प्रदेशानाञ्च 88 संसदीय आसनेषु सममेव मणिपुर लोकसभा क्षेत्रस्य अवशिष्ट भागेषु मतदानानि भविष्यन्ति। अवसरेऽस्मिन् केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 13 आसनानि, उत्तरप्रदेशस्य 8, महाराष्ट्रस्य 8, मध्यप्रदेशस्य 7 आसनानि, असमस्य 5 आसनानि, बिहारस्यापि 5 आसनानि, पश्चिमबंगालस्य 3 आसनानि, छत्तीसगढस्यापि 3 आसनानि, त्रिपुरा जम्मू कश्मीरयोः एकम् एकम् आसनं समेत्य द्वितीय चरणे मतदानानि भविष्यन्ति। विभिन्न राजनैतिक दलानां वरिष्ठ नेतारः मतदातृन् आक्रष्टुम् अशेषे हि देशे जनसभाः सम्बोधने दत्तचित्ताः सन्ति। प्रधानमन्त्री एवं भाजपेति दलस्य वरिष्ठ नेता नरेन्द्रमोदी महाराष्ट्रस्य नान्देड परभणि स्थलयोः जनसभां सम्बोधितवान्। श्रीमोदिना ह्यः लोकसभा निर्वाचनस्य प्रथमचरणे महत्संख्यायां मतदानार्थं प्रसन्नता प्रकटिता। तेनोदीरितं यत् देशे जायमानस्य लोकतन्त्रोत्सवस्य काले इतोऽपि मतदानानां सुनिश्चयो भवेत्। अत्रावसरे तेन एनडीए सर्वकारस्य उपलब्धयः अपि प्रकाशिताः। एतस्मिन्नन्तर्गतं लक्षाधिकेभ्यः महिलाभ्यः शौचालय प्रदानं, निर्धनेभ्यः वित्तकोषस्य सौविध्य प्रदानं, यूपीआई प्रविधेः समारम्भः इत्येताः सुविधाः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी चिक्का बल्लापुर बेंगलुरु स्थलयोः अपि सार्वजनिक उपवेशनं विधास्यति। कर्णाटकस्य मुख्यमन्त्री एवं कांग्रेस नेता सिद्धारमैया मैसूरे एवं माण्ड्या निर्वाचनक्षेत्रेषु निर्वाचन प्रचारं कुर्वन् अस्ति। अपरत्र कर्णाटकस्य उपमुख्यमन्त्री डीके शिवकुमारः अद्य माण्ड्यायां निर्वाचन प्रचारं कुर्वन् वर्तते। कांग्रेस नेत्रा राहुल गांधिना बिहारस्य भागलपुरे नैर्वाचनिक जनसभा एका सम्बोधिता। लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन पत्राणां निरीक्षणम् अद्य सम्पन्नम्। ह्यः नामांकन प्रपूरण प्रक्रिया समाप्ता जाता। एतस्मिन् तृतीय चरणे 10 राज्येषु 2 केन्द्रशासित प्रदेशयोश्च 94 संसदीय क्षेत्रेभ्यः मई मासस्य 7 दिनांके मतदानं भविष्यति। प्रत्याशिनः सोमवासरं यावत् स्वीय नामांकन प्रत्यावर्तनं कर्तुं शक्नुवन्ति। गुजरातराज्ये लोकसभा निर्वाचनस्य, विधानसभा निर्वाचनस्य च उपनिर्वाचनस्य नामांकन पत्र निरीक्षणं प्रचलति। अवधेयं वर्तते यत् लोकसभा निर्वाचनस्यैव चतुर्थचरणाय नामाङ्कनपत्रपूरणकार्यं गुरुवासरे भविता। एतस्मिन् चतुर्थे चरणे मईमासस्य त्रयोदशदिनांके नवराज्यानां एकस्य केन्द्रशासितप्रदेशस्य 96 लोकसभाक्षेत्रेभ्यः मतदानानि भविष्यन्ति। अस्य मासस्य 25 दिने नामांकन प्रत्यावर्तनं कर्तुं शक्यते। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सामान्य निर्वाचनस्य प्रथमचरणे 62.37% मतदानानि समभवन्। मतदानं शान्तिपूर्णरीत्या सम्पन्नं जातम्। मतदातृभिः नागरिकदायित्वस्य गौरवस्य च समीचीनं प्रदर्शनं कृतम्। अत्युष्णलहर्याः प्रकोपे अपि जनैः उत्साहेन मतदानं विहितम्। प्रथमचरणे 17 राज्यानां 4 केन्द्रशासितप्रदेशानां च 2.1% मतदानानि समभवन्। निर्वाचनायोगेन अवसरेऽस्मिन् सर्वेभ्यः मतदातृभ्यः कार्यकर्तृभ्यश्च धन्यवादो ज्ञापितः। मुख्यन्यायाधीशः भारतस्य डॉ डीवाई चन्द्रचूडः प्रोक्तवान् यत् साम्प्रतिके काले अधिनियमान्तर्गतानां नवीनापराधिकविधीनां क्रियान्वयनं स्पष्टरूपेण प्रदर्शयति यत् देशः परिवर्तनशीलः समुदीयमानश्च भवति। अद्य नवदिल्ल्याम् एकां संगोष्ठीं सम्बोधयन् असौ उक्तवान् यत् भारतीय न्यायसंहिता, भारतीय नागरिक सुरक्षा संहिता, भारतीय साक्ष्य अधिनियमश्च इत्येतेषां माध्यमेन राष्ट्रं स्वीयापराधिक न्याय प्रणाल्यां महत्वपूर्ण परिवर्तनाय तत्परं वर्तते। असौ कथितवान् यत् एते विधयः आपराधिक न्याये भारतस्य विधिक संरचनाः नवयुगे परिवर्तिताः। कृत्रिम मेधाः उपयोगे अपि सबलं प्रत्यपादयत् यत् एआई इति न्यायपालिकाम् आपराधिक घटनासु प्रगति मापनं सक्षम करिष्यति। असौ उक्तवान् यत् एते विधयः तदा सफलीभूताः भविष्यन्ति यदा राष्ट्रस्य प्रत्येक नागरिकैः एते आत्मसात् क्रियन्ते। भाजपेति दलस्य वरिष्ठ नेत्री वित्तमन्त्री च निर्मला सीतारामन् इत्येषा 47.2% यावत् भाजपेति प्रशासनेन साधितं विकसित भारतस्य स्वप्नं पुनरावर्तितवती। अहमदाबादनगरे गुजरात चैम्बर ऑफ कॉमर्स एण्ड इण्डस्ट्रीज इत्यनेन समायोजिते विकसित भारतम् @47.2000 इत्यस्मिन् पारस्परिक सत्रे एकस्मिन् प्रवदन्ती सुश्री सीतारामन् इत्येषा भारतस्य आर्थिक परिवर्तने यथा मुद्रास्फीतेः द्वयंकने प्रकाशम् आनीतवती। अनया निवेशम् आक्रष्टुं गुजरातस्य महत्वपूर्ण भूमिकायाः विषयः कथितः। भारतर्तु विज्ञान विभागेन सोमवासरं यावत् ओडिशा गांगीय पश्चिम बंगालयोः उष्णलहरी प्रकल्पिता। तत्रैव उत्तर भारतस्य केभ्यश्चित् भाग्येभ्यः वृष्टिः हिमपातश्च अनुमानितः। आगामिनं दिनद्वयं यावत् झारखण्डस्य केषुचित् भागेषु अत्यधिक ग्रीष्मता अनुमानिता। किर्गिस्ताने एशियाई ओलंपिक क्वालिफायर प्रतिस्पर्धायां भारतीय मल्लयुद्ध क्रीडिकाः विनेश फोगाटः, अंशु मलिकः, मानसी ऋतिका इत्येताः उपान्त्यचक्रे सम्प्रविष्टवत्यः। विनेश फोगाटः इत्यनया महिलानां 50 किलोग्राम भारवर्गे कम्बोडियाई प्रतिद्वन्द्वी समानांग डीट इत्येषा पराजिता। आईपीएल क्रिकेट क्रीडा मालिकायाम् अद्यतने द्वन्द्वे अरुण जेटलीति क्रिकेट क्रीडांगणे दिल्ली कैपिटल्स दलं सनराइजर्स हैदराबाद दलेन सह स्पर्धिष्यति। इयं स्पर्धा सायं 7:30 आरप्स्यति। इति वार्ताः।